इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। राजनीतिक दलानां तारक प्रचारकाः स्वकीयानां लोकसभा निर्वाचन प्रत्याशीनां पक्षे प्रचाराय अहोरात्रं प्रयतन्ते। अष्टादशतमायाः लोकसभायाः सामान्य निर्वाचनात् प्राक् प्रवर्तन संस्थाभिः सार्ध षड् शतोत्तर चतुस्सहस्र कोटि रूप्यकाणां चलाचल सम्पत्तिः स्थिरीकृत्वा कीर्तिमत् स्थापितम्। अद्य उपराष्ट्रपतिना जगदीप धनखड़ेन एआई इत्याख्यां कृत्रिम बुद्धिमत्तां रेखांकयता प्रोक्तं यत् एतादृशाः उन्नत प्रौद्योगिक्यः करसन्धानादि प्रकरणेषु प्रशासनस्य सहायिकाः सन्तीति। भारतीय सैन्यप्रमुखः जनरल मनोज पाण्डेयः अद्यारभ्य उज्बेकिस्तान देशस्य चतुर्दिवसीय यात्रायां प्रयाति। अपि च आईपीएल क्रिकेट क्रीडामालायां रॉयल चैलेंजर्स बेंगलुरु दलम् अद्य बेंगलुरुस्थे एम चिन्नास्वामी क्रिकेट क्रीडांगणे सनराइजर्स हैदराबाद इति दलेन सह संघर्षो विधास्यति। अथ वार्ताः विस्तरेण। नैकेषां राजनीतिक दलानां तारक प्रचारकाः स्वकीयानां लोकसभा निर्वाचन प्रत्याशीनां पक्षे प्रचाराय अहोरात्रं प्रयतन्तः सन्ति। लोकसभायाः द्वितीय चरणीय मतदानाय भाजपेति दलनेता प्रधानमन्त्री च केरला प्रान्तस्य चेकवत्तानी इत्यत्र नैर्वाचनिक सभां सम्बोधितवान्। द्वितीय चरणीय मतदानं अप्रैल मासस्य षड्विंशे दिनांके भविता। भाषमाणः प्रधानमन्त्री उक्तवान् यत् वामिनी प्रशासनानि केन्द्रप्रशासनस्य विकासयोजनाः दक्षिणवर्तिभ्यः राज्येभ्यः संगोपयन्ति। परं भाजपेति दलस्य प्राथमिकता वर्तते यत् समाजस्य अन्तिमसोपानस्थं जनं यावत् विकासस्य सौविध्यानां च प्रापणमिति। श्रीमोदी अवोचत् यत् सम्भावितानि लोकसभायाः सामान्य निर्वाचनानि भारतस्य शताब्दाय उन्नतिपथं प्रदर्शयिष्यन्तीति। तेनोक्तं यत् भाजपायाः घोषणापत्रं भारतं शक्तियुतकरणाय प्रयतते, कांग्रेसदलस्य च घोषणापत्रं राष्ट्रं निःशक्तं करोतीति। भाजपया देशोऽयं सशक्तः विहितः, देशस्य सशक्तिकरणाय जनाः भाजपा इत्यस्मै दलाय मतदानं कुर्युः। तथैव वायनाड लोकसभा प्रत्याशिना राहुल गांधिनापि नैकेषु नैर्वाचनिक सम्मर्देषु भागः गृहीतः। अस्मिन्नेव प्रदेशे सीताराम येचुरी प्रकाश करातादीनापि प्रचाराभियानानि प्रचालितानि। सिलीगुड़ु क्षेत्रे केन्द्रीय मन्त्रिणा अनुराग सिंह ठाकुरेण क्रीडा सम्बन्धितैः व्यक्तिभिः सह मेलन पुरस्सरं नैर्वाचनिक सभापि सम्बोधिता। त्रिपुरायाञ्च निर्वाचनाभियानस्य भारतीय दलस्य दायित्वं क्षमतां भाजपा इति दलस्य दायित्वं केन्द्रीय गृहमन्त्रिणा अमितशाहेन निभालितम्। अद्य सः एकस्यां सभायां प्रावोचत् यत् नरेन्द्र मोदिनः नेतृत्वे राष्ट्रिय जनतांत्रिक संघस्य प्रशासनं त्रिपुरा प्रदेशस्य विकासाय कटिबद्धमस्तीति। सः ऊनाकोटी जनपदस्य कुमारघाटे जनसभां सम्बोधयन्नासीत्। श्रीशाहेन भणितं यत् आदिमजनानां सम्मानाय, सुरक्षणाय, समाहित विकासाय च श्रीमता मोदिना नैकाः विकासयोजनाः क्रियान्विताः कृताः सन्ति। तेनोक्तं यत् स्वतन्त्रतायाः पञ्चसप्ततिवर्षेष् पप्रथमतया एका आदिमजनजातीया महिला भारतस्य राष्ट्रपतिः सञ्जातास्ति। वरिष्ठेन भाजपादलनेत्रा प्रोक्तम् आदिमजनजातीयजनानां कल्याणाय कल्याणनिधिः सातत्येन वृद्धिमास्यति। सहैव हि राज्येऽस्मिन् कांग्रेससहित सीपीआईएम इत्यादीनां नेतृभिरपि दलप्रत्याशिनां पक्षे मतदानाय प्रचाराभियानानि प्रचालितानि। अष्टादशतमायाः लोकसभायाः सामान्य निर्वाचनात् प्राक् प्रवर्तन संस्थाभिः सार्ध षड् शतोत्तर चतुस्सहस्र कोटि रूप्यकाणां चलाचल सम्पत्तिः स्थिरीकृत्वा कीर्तिमत् स्थापितम्। निर्वाचनायोगेन निगदितं यत् अयं राशिः गतलोकसभायाः समग्रस्य निर्वाचनकालस्य गृहीतस्य राशेरपि अधिकः वर्तते। सम्प्रति उपक्रमोऽयं सजबं प्रवर्तते एव। अस्मिन् राशौ 45% तु मादकद्रव्यादीनाम् आसीत्। आयोगेन प्रकरणेऽस्मिन् उक्तमस्ति यत् साफल्यमिदं जनसहभागेन सार्धं व्यापक योजनया विभिन्नानाम् अभिकरणानाम् ऐक्यभावेन च कृतप्रयासैः समधिगतमस्तीति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य उपराष्ट्रपतिना जगदीप धनखड़ेन एआई इत्याख्यां कृत्रिम बुद्धिमत्तां रेखांकयता प्रोक्तं यत् एतादृशाः उन्नत प्रौद्योगिक्यः करसन्धानादि प्रकरणेषु प्रशासनस्य सहायिकाः सन्तीति, येन प्रशासनतन्त्रेषु करदातृणां विश्वासोऽभिवर्धते, येन अधिकतया करानुपालनमपि प्रोत्साहयिष्यते। श्रीधनखड़ः नागपुरस्थे राष्ट्रिय प्रत्यक्ष कर अकादमी एनएडीटी इत्यत्र भारतीय राजस्व सेवायाः षड्सप्ततितम प्रकल्प समूहाय आयोजिते प्रेरण प्रशिक्षण सत्रस्य समापन समारोहे भाषमाणः आसीत्। भारतीय सैन्य प्रमुखः जनरल मनोज पाण्डेयः अद्यारभ्य उज्बेकिस्तान देशस्य चतुर्दिवसीय यात्रायां प्रयाति। रक्षामन्त्रालयेन प्रोक्तं यत् अस्याः यात्रायाः उद्देश्यमस्ति उभयोर्देशयोः पारस्परिकी सहमतिः स्थापिता स्यादिति, द्विपक्षीयः रक्षासहयोगश्च सुदृढो भवेदित्यपि। श्रीपाण्डेयः तत्र उज्बेकिस्तान देशस्य शीर्षेण रक्षानेतृत्वेन सह संवादे सम्मिलितो भविष्यति, यो हि सुदृढ सैन्य सहयोगस्य वरिवर्धने महत्वपूर्णः अस्ति। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् राष्ट्रस्य प्रगतिः केवलम् एकेन अनुभविना नेत्रा एव कर्तुं शक्यते, यः साहसिक पदक्षेपणे शक्तः महत्विचारयुतश्च भवेदिति। सः वैश्विक विचारान् जानीयात्, सम्मानधारणे च सक्षमः, निर्धनानां यूनाञ्च आकांक्षाभिपूरणे श्रमं कुर्यात्। अद्य बेंगलुरुनगरे वार्ताहरान् सम्बोधयन् डॉ एस जयशंकरः प्रधानमन्त्रिणं श्रीनरेन्द्रमोदिनं देशस्य नेतृत्वाय सक्षम नेता अस्तीति स्पष्टं कृतवान्। डॉ एस जयशंकरः यूक्रेन गाजा इत्येतयोः विषये प्रोक्तवान् यत् रक्तसागर अर्बुदसागर क्षेत्रयोः भारत प्रशान्त क्षेत्रस्य च स्थितिः चिन्तापूर्णा वर्तते। गृहमन्त्रालयेन उक्तं यत् चीन नियन्त्रित लद्दाख क्षेत्रे चीनदेशस्य अतिक्रमणे भारत तिब्बत सीमा आरक्षिबलस्य संघर्ष सम्बन्धितं सामाजिक संचार माध्यमेषु प्रसारितं एकं सन्देशं भ्रामकं दुर्भावनापूर्णं च अस्तीति। मन्त्रालयेन उक्तं यत् सन्देशोऽयं राष्ट्रिय सुरक्षायाः संवेदनशीलता विषये भ्रामकं दुर्भावनापूर्णं द्रोहवृत्तिकरं च अस्ति। सामाजिक संचारेषु प्रसारिते एकस्मिन् सन्देशे मन्त्रालयेन स्पष्टीकृतं यत् आईटीबीपी इत्यनेन गृहमन्त्रालयं प्रति एतादृशं किमपि आन्तरिकं प्रतिवेदनं न प्रेषितम् अस्ति। द्विपञ्चाशद्दिनात्मकायै श्री अमरनाथयात्रायै श्री अमरनाथ श्राइन बोर्ड इत्यनेन अद्यारभ्य पञ्जीकरणकार्यं प्रचाल्यते। जूनमासस्य एकोनत्रिंशद्दिनांकतः श्रद्धालवः अगस्तमासस्य एकोनविंशद्दिनांकपर्यन्तम् अस्यां तीर्थयात्रायां गच्छन्ति। अन्ते क्रीडावार्तायाम्, आईपीएल क्रिकेट क्रीडामालायां रॉयल चैलेंजर्स बेंगलुरुदलम् अद्य बेंगलुरुस्थे एम चिन्नास्वामी क्रिकेट क्रीडांगणे सनराइजर्स हैदराबाद इति दलेन सह संघर्षो विधास्यति। क्रीडायाः प्रसारणं कश्चित् कालानन्तरं सार्धसप्तवादनतः समारप्स्यते। ह्यस्तन क्रीडितायां क्रीडायां विंशतिः धावनांकैः चेन्नई सुपर किंग्स दलेन मुंबई इंडियंस इति दलं, कोलकाता नाइट राइडर्स इति दलेन च लखनऊ सुपर जायंट्स इति दलं पराजितम्। अन्ते मुख्यवार्ताः पुनरेकवारम्। राजनीतिकदलानां तारकप्रचारकाः स्वकीयानां लोकसभानिर्वाचन प्रत्याशिनां पक्षे प्रचाराय अहोरात्रं प्रयतन्ते। अष्टादशतमायाः लोकसभायाः सामान्य निर्वाचनात् प्राक् प्रवर्तन संस्थाभिः सार्धषड्शतोत्तर चतुस्सहस्रकोटिरूप्यकाणां चलाचल सम्पत्तिः स्थिरीकृत्वा कीर्तिमत् स्थापितम्। अद्य उपराष्ट्रपतिना जगदीप धनखड़ेन एआई इत्याख्यां कृत्रिम बुद्धिमत्तां रेखांकयता प्रोक्तं यत् एतादृशाः उन्नत प्रौद्योगिक्यः करसन्धानादि प्रकरणेषु प्रशासनस्य सहायिकाः सन्तीति इति वार्ताः।